ॐ श्री परमात्मने नमः। अथ पञ्चमोऽध्याय। अर्जुन उवाच, संन्यासं कर्मणां कृष्ण पुनर्योगं च संससि, यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्रीभगवानुवाच, संन्यासः कर्मयोगश्च निःश्रेयस्करावुभौ, तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते। ज्ञेयः सः नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति, निर्द्वन्द्वो हि महाबाहो सुखम् बन्धः क्रमुच्यते। साङ्ख्ययोगौ पृथक् बालाः
वदन्ति न पण्डितः,
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्। यत्साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते। एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति। सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः, योगयुक्तो मुनिर्ब्रह्म न चिरेणादि गच्छति। योगयुक्तो विशुद्धात्मा विहितात्मा जितेन्द्रियः, सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्वविद्।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् नश्नन् गच्छन् श्वसन् प्रलपन् विसृजन् गृह्णन्मिषन् निमिषन्नपि,
इन्द्रियाणीन्द्रियार्थेषु वर्तन्तैर्विधाय ब्रह्मण्याधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्बस, कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वात्मशुद्धये, युक्तः कर्मफलम् त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते। सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखम् वशी, नवद्वारे पुरे देहि नैव कुर्वन्न कारयन्। न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभु, न कर्मफलसंयोगम् स्वभावस्तु प्रवर्तते। नादत्ते कस्यचित् पापम् न चैव सुकृतम् विभु, अज्ञानेनावृतम् ज्ञानम्
येन मोह्यन्ति जन्तवः।
ज्ञानेन तु तदज्ञानम् येषाम् नाशितमात्मनः, तेषामादित्यवज्ज्ञानम् प्रकाशयति तत्परम्। तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः, गच्छन्त्य पुनरावृत्तिम् ज्ञाननिर्धूतकल्मषाः। विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि, श्रुहि चैव श्वपाके च पण्डिताः समदर्शिनः। इहैव तैर्जितः सर्गो येषाम् साम्ये स्थितम् मनः, निर्दोषम् विषमम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः। न प्ररिष्येत् प्रियम् प्राप्य नो द्विजेत् प्राप्य सा प्रियम्, स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः। प्राह्यस्पर्शे स्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्, स ब्रह्मयोगयुक्तात्मा
क्षयमश्नुते।
ये हि संस्पर्शदा भोगा दुःखयो न एव ते, आद्यन्तमन्तः कौन्तेय न तेषु रमते बुध। शक्नोति हैव यः सोढुम् प्राक्शरीरपि मोक्षणात्, कामक्रोधोद्भवम् वेगम् स युक्तः स सुखी नरः। योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः, स योगी ब्रह्म निर्वाणम् ब्रह्मभूतोऽधि गच्छति। लभन्ते ब्रह्म निर्वाणम् विषयक्षीणकल्मषाः, छिन्नद्वैधा यदात्मानः सर्वभूतहिते रताः। कामक्रोधवियुक्तानाम् यतीनाम् यतचेतसाम् अवितो ब्रह्म निर्वाणम् वर्तते विदितात्मनाम्। स्पर्शान् कृत्वा बहिर्वायाः चक्षुश्चैवान्तरे भ्रुवोः, प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ। यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः, विगतेच्छाभयक्रोधो यः सदा मुक्त एव स। भोक्तारम् यज्ञतपसाम् सर्वलोकमहेश्वरम्, सुहृदम् सर्वभूतानाम्
ज्ञात्वा माम् शान्तिमृच्छति, ज्ञात्वा माम् शान्तिमृच्छति।
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे।
कृष्णार्जुनसंवादे
कर्मसन्न्यासयो नाम पञ्चमोऽध्यायः।